इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। पश्चिम बंगाले एप्रिल मासस्य 23-29 दिवसयोः भवितव्ययोः मतदानयोः पूर्वं प्रचारे तीव्रता वर्धितास्ति। प्रधानमन्त्री नरेन्द्र मोदी शीर्षनेतारः जनसंपर्क अभियानं सक्रियरूपेण कुर्वन्ति। पश्चिम एशियायाम् आपूर्तौ व्यवधाने सति अपि भारतीय शोधन केन्द्राणि ईरान देशं समेत्य विविध स्रोतृभ्यः वात्यन्धनस्य आवश्यकतां सफलतापूर्वकं पूरयितुं समर्थानि जातानि। भारतीय निर्वाचनायोगेन उक्तं यत् आगामिनां विधानसभा निर्वाचनानाम् उपनिर्वाचनानां च पूर्वं मतदातृन् अन्यैः प्रलोभनैः प्रभावितुं प्रयत्नेन सार्ध षट्शत कोटि रूप्यकाधिक मूल्यात्मिकानां सामग्रीणां निगडनं जातम्। अपि च इण्डियन् प्रीमियर् लीग् स्पर्धायां रॉयल चैलेंजर्स बेंगलुरु दलम चेन्नई सुपर किंग्स दलम सह स्पर्धां करिष्यति। अथ वार्ताः विस्तरेण। मतदान तिथिमालक्ष्य प्रमुखेषु राज्येषु निर्वाचन प्रचारः सजवं प्रचलति। अस्मिन् अवसरे शीर्षनेतारः जनसंपर्क अभियानं सक्रियरूपेण कुर्वन्ति। पश्चिम बंगाले एप्रिल मासस्य 23-29 दिवसयो भवितव्ययोः मतदानयोः पूर्वं प्रचारे तीव्रता वर्धितास्ति। अद्य प्रधानमन्त्री नरेन्द्र मोदी अद्य कूचबिहार नगर्याम् एकां जनसभां सम्बोधितवान्। अपरत्र मुख्यमन्त्री ममता बनर्जी राज्ये सर्वत्र प्रचारं कुर्वती अस्ति। सममेव कांग्रेस वामपन्थिनः अन्ये च दलानि जनसभाः कुर्वन्ति। असमराज्येऽपि राजनीतिक क्रियाकलापाः तीव्राः जाताः। कांग्रेस नेता राहुल गांधी विश्वनाथ क्षेत्रे एकां जनसभां सम्बोधितवान्, यत्र सः भाजपा प्रशासनम् अपूर्ण कार्याणिमालक्ष्य आक्षिप्तवान्। तमिलनाडुराज्येऽपि प्रचारः सजवम् अनुवर्तते। डीएमके दलस्य प्रमुखः एमके स्टालिन स्वस्य गठबन्धन सहयोगिनां कृते प्रचारं करोति, तथा एआईएडीएमके दलस्य नेतारः च गृहे गृहे गत्वा जनसम्पर्कं कुर्वन्ति। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् प्रशासनम् एतत् सुनिश्चितं करिष्यति यत् केरल तमिलनाडु कर्णाटक आन्ध्रप्रदेश गोवा तेलंगाना चेत्येतेषु राज्येषु लोकसभायाः आसनसंख्यायां न्यूनता न भविष्यति। यः केरलराज्ये तिरुवल्ला नगरे आयोजितायां सभायां सः अवदत् यत् मिथ्यावार्ता प्रसार्यते यत् उत्तमजनसंख्यानियन्त्रणकारणेन दक्षिणराज्येषु आसनसंख्या न्यूना भवेत्। श्रीमोदिना आश्वसितं यत् प्रशासनं जनप्रतिनिधित्वस्य रक्षणाय वैधानिक प्रतिभूति अपि दास्यति। प्रधानमन्त्री सर्वान् राजनीतिकदलान् अपि समावानं कृतवान् यत् ते लोकसभायां विधानसभासु च महिलाभ्यः 33% आरक्षणस्य प्रस्तावस्य समर्थनं कुर्वन्तु इति।
हमने कांग्रेस के लोगों को मीटिंग के लिए बुलाया। हम आशा करते हैं तो हमारी बात मान करके आएंगे। हमने इंडियन अलायंस के मित्रों से बात की है। आप भी लोगों को बताइए, कांग्रेस के लोगों को बताइए, एलडीएफ के लोगों को बताएं कि महिलाओं के अधिकार का एक कानून निर्विरोध पास होना चाहिए।
तेन अस्मिन् विषये जनान् प्रति आह्वानं कृतं यत् ते विपक्षम् अपि सहयोगं कर्तुं प्रेरयन्तु। प्रधानमन्त्री उक्तवान् यत् 23-2000 वर्षे पारितस्य महिलारक्षणविधेः कार्यान्वयनम् अग्रे नेतुं संसदि आयव्ययसत्रं दिनत्रयपर्यन्तं विस्तारितं कृत्वा अस्य मासस्य 16-17-18 चेति तिथिषु आयोजितं भविष्यति। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेण सूचितं यत् F-15E इत्यस्य युद्धविमानस्य द्वितीयः अपि चालकः सुरक्षितरूपेण उद्धारितः अस्ति। ईरानेन युद्धविमानं पातिते सति अस्य चालकस्य अन्वेषणं क्रियमाणम् आसीत्। श्रीट्रम्पः अवदत् यत् अयं चालकः ईरानदेशस्य पर्वतीप्रदेशे बद्धः आसीत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। शिलातेल प्राकृतिक वात्यन्धन मन्त्री हरदीप सिंह पुरी उक्तवान् यत् भारतदेशः ईरानदेशात् 40 देशेभ्यः शिलातैलम् आयातं करोति। अस्य क्रये वित्तसम्बद्धा कापि समस्या नास्ति। सामाजिक माध्यमेषु प्रकाशिते एकस्मिन् सन्देशे श्रीपुरी सामाजिक माध्यमैः मिथ्या प्रचारान् निराकृतवान्, येषु उक्तं यत् आसीत् यत् वित्तीयाः समस्यायाः कारणात् ईरान देशात् वात्येन्धनस्य एकं वाहनसमूहं भारतस्य वडिनार स्थलात् चीनदेशं प्रति परिवर्तितः आसीत्। असौ एतान् तथ्यान् असत्यं प्रतिपादितवान्। सः उक्तवान् यत् पश्चिम एशियायाम् आपूर्तो व्यवधाने सति अपि भारतीय शोधनकेन्द्राणि ईरान देशं समेत्य विविधस्रोतेभ्यः वात्येन्धनस्य आवश्यकतां सफलतापूर्वकं पूरयितुं समर्थानि जातानि। उपराष्ट्रपतिः सीपी राधाकृष्णन् उक्तवान् यत् मानसिकशान्तेः आत्मावलोकनस्य च महत्त्वं वर्धितमस्ति। ध्यानमेव समग्रस्वास्थ्यस्य कुञ्जिका अस्ति। अद्य नवदिल्ल्यां विश्वध्यानसम्मेलनावसरे तेन उक्तं यत् ध्यानं मानसिकीम् अशान्तिं न्यूनीकरोति, एकाग्रतां वर्धयति, भावनात्मकतया च सशक्तीकरणं करोति। श्रीराधाकृष्णन् अवदत् यत् 47-2000 वर्षे विकसितभारतस्य निर्माणाय देशे अनुशासितानि प्रयत्नानि आवश्यकानि सन्ति, यानि मनसः शरीरस्य आत्मनश्च सन्तुलनेन एव सम्भवति। भारतीय निर्वाचनायोगेन उक्तं यत् आगामिनां विधानसभानिर्वाचनानाम् उपनिर्वाचनानां च पूर्वं मतदातॄन् अन्यैः प्रलोभनैः प्रभावितुं प्रयत्नेन 650 कोटिरूप्यकाधिकमूल्यात्मिकानां सामग्रीणां निगडनं जातम्। निगडितेषु सामग्रीषु धनानि, मादकद्रव्याणि, धातवः, निःशुल्कोपहाराः च सम्मिलिताः सन्ति। आयोगेन एतत् अपि प्रतिपादितं यत् प्रवर्तन अधिकारिणः सुनिश्चितवन्तः यत् निरीक्षणकाले सामान्यान् नागरिकान् प्रति न काचन असुविधा, उत्पीडनं वा भवेत्। अद्य सायं इण्डियन् प्रीमियर् लीग् स्पर्धायां दलं रॉयल चैलेंजर्स बेंगलुरुदलं चेन्नई सुपर किंग्स दलं सह स्पर्धां करिष्यति। एषा क्रीडा सायंकाले 7:30 आरप्स्यते। मुख्यवार्ताः पुनरेकवारम्। पश्चिम बंगाले एप्रिल मासस्य 23-29 दिवसयोः भवितव्ययोः मतदानयोः पूर्वं प्रचारे तीव्रता वर्धितास्ति। प्रधानमंत्री नरेन्द्र मोदी शीर्षनेतारः जनसंपर्क अभियानं सक्रियरूपेण कुर्वन्ति। पश्चिम एशियायाम् आपूर्तौ व्यवधाने सति अपि भारतीय शोधनकेन्द्राणि ईरान देशं समेत्य विविधस्रोतेभ्यः वात्येन्धनस्य आवश्यकतां सफलतापूर्वकं पूरयितुं समर्थानि जातानि। भारतीय निर्वाचनायोगेन उक्तं यत् आगामिनां विधानसभानिर्वाचनानाम् उपनिर्वाचनानां च पूर्वं मतदातॄन् अन्यैः प्रलोभनैः प्रभावितुं प्रयत्नेन 650 कोटिरूप्यकाधिकमूल्यात्मिकानां सामग्रीणां निगडनं जातम्। अपि च अद्य सायं इण्डियन् प्रीमियर् लीग् IPL इति स्पर्धायां रॉयल चैलेंजर्स बेंगलुरुदलं चेन्नई सुपर किंग्स दलं सह स्पर्धां करिष्यति।